अखंड मंडलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे जानतिमिरान्धानां जानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः अखण्डानन्दकोशाय शिष्यसन्तापहारिणे सच्चिदानन्दरूपाय तस्मै श्रीगुरवे नमः नान्धिकृतं विश्वं सचक्षुस्तु सचक्षुषं दिदृक्षा चेद्भजत्वं तु देशिकेन्द्रं सचक्षुषम् अन्धस्य गुरुरेकाक्षः तस्य द्वचक्षो गुरुमतिः द्वचक्षाणामपि सर्वेषां गुरुस्त्रक्षो न तत्समः सहस्राक्षादयः सर्वे दृचक्षा एव हि केवलं कार्यध्येयदृशो यस्मा द्रक्षशीर्षपदे स्थिताः त्र्यक्षस्तु भगवानादि पुरुषः शङ्करो भवः सृष्ट्वा सर्वाणि भूतानि कायमध्येथ सन्दिशन् यातीतममलं तृतीयाक्षस्य तृतीयाक्षस्य गोचरं ददाति प्रार्थितस्तुष्टः श्रीगुरुः परमेश्वरः पापनांच दैत्यानांच सदा कल्याणकारकः अनेक शिष्य संपूर्णः पीडां हरतु मे।